येन धोता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. नमस्कारः.
नमस्कारः, धन्यवादः भगिनी. अस्तु, सर्वेषां स्वागतम् अस्मिन् वर्गे. अत्र अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तपदानां विभक्तयः इति विषयः. तस्मिन् विषये गतवर्गे एकां कथां तत्र किञ्चित् पठितवन्तः. इदानीं ताम् एव कथां पुनरेकवारम् आरम्भतः पठामः. तत्र पी डी एफ् तु अस्ति इति मन्ये, अतः तत्र कथा अस्ति धीरस्तत्र न मुह्यति इति कथा. अत्र लक्ष्मी भगिनी आरम्भं करोति वा भगिनि? लक्ष्मी भगिनी, प्रायशः पेज् 15 इति मन्ये इति. प्रिण्टेड् पेज् 25 अस्ति, किन्तु तत्र पी डी एफ् मध्ये तत्र पेज् किम् अस्ति, एकनिमिषः पश्यन् अस्मि भगिनि. पेज् 13 भगिनि, पेज् 13. रघुपतिमहोदय नमस्कारः. महोदय
नमस्कारः.
नमस्कारः. तत्र गतवर्गे तत्र कथा आसीत् महोदय, पेज् 25 गीतासोपने द्वितीयभागे पञ्चम अध्यायः. अस्तु लक्ष्मी भगिनि, तत्र आरम्भतः पठतु भगिनि तत्र.
सद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवतः छात्रस्य समारभ्यः प्रवर्तमान
सम्माननसमारम्भः
प्रवर्तमानः अस्ति. दूरदर्शनेन प्रसार्यमाणः सः कार्यक्रमः एवम् अस्ति. एतत् उच्चैः पठत अवगच्छत च.
हा, इति तावत् तावत् अस्तु. अत्र एव पश्यामः, तत्र तत्र सत्यजितः इति अस्ति, तत्र विभक्ति का भगिनि?
सत्यजितः षष्ठी विभक्ति.
हा, सत्यजित् इति प्रातिपदिकं, सत्यजित् प्रातिपदिकं, सत्यजितः इति षष्टि वचनम्, एकवचनम्. अस्तु, अत्र अस्मिन् वाक्ये क्रियापदं किम् अस्ति? क्रियापदं किम् अस्ति? अस्ति. अस्तु, समीचीनम्. अस्तु, किम् अस्ति?
प्रवर्तमानः अस्ति.
प्रवर्तमानः अस्ति. तत्र कर्तृपदं किम् अस्ति? कर्तृपदम् अस्मिन् वाक्ये समीचीनं समीचीनं भगिनि. अस्तु, सम्माननसमारम्भः अस्ति. तत् अपि प्रवर्तमानः, तत्र विभक्ति का प्रवर्तमानः? प्रवर्तमानः प्रवर्तमानः प्रथमाविभक्ति. हा, समीचीनं. प्रवर्तमानः अकारान्तपदमेव तत्र, प्रवर्तमानः इति. हा, अतः तत्र सम्बन्धः अस्ति वा सम्माननसमारम्भः? तदपि प्रथमविभक्ति, प्रवर्तमानः अपि प्रथमविभक्ति अस्ति इति क्रियापदम्. तदपि प्रथम, तदपि प्रथमविभक्ति. अतः तत्र कर्तृपदं द्वयम् अस्ति खलु तत्र, अतः हा अतः कः सम्बन्धः तयोः मध्ये वदतु भगिनि हा इत्युक्ते किं तत्र यदि वयं वदामः रामः अस्ति तदनन्तरं वयं वदामः रामः उत्तमः अस्ति तत्र उत्तमः कीदृशपदं भवति विशेषणं रामस्य विषये रामपदस्य विषये किञ्चित् अधिकं सूचयति खलु अतः विशेषणं विशेषणम् इत्युक्ते नामपदस्य विषये किञ्चित् अधिकं वदति इति कृत्वा तद् विशेषणम् इति अतः तत्र सम्माननसमारम्भः अस्ति कीदृशः सम्माननसमारम्भः यः प्रवर्तमानः सम्माननसमारम्भः अस्ति इति समीचीनं भगिनी गीताञ्जलि भगिनी नमस्कारः शुभदा भगिनी नमस्कारः
नमस्कारः महोदय
नमस्कारः तत्र पञ्चम अध्यायः तत्र धीरस्तत्र न मुह्यति इति गतवर्गे कथाम् आरम्भं कृतवन्तः सत्यजितः इति तस्य कथा अस्तु इदानीं तत्र लक्ष्मी भगिनी समीचीनम् इदानीं नरेश् महोदय तत्र सत्यजितः इति अस्ति खलु सत्यजितः सम्माननसमारम्भः इति तत्र सत्यजितः षष्टि इति उक्तम् अतः तत्र तत् किं भवति कस्य सम्माननसमारम्भः इत्युक्ते सत्यजितः सम्माननसमारम्भः इदानीं तत्र तस्य पूर्वं किम् अस्ति तत्र नद्याम् इति अस्ति नद्याम् इति विभक्ति का
द्वितीय
नद्याम्
ओ नद्यां सप्तमी
हा सप्तमी वचनम्
एकवचनं
एकवचनं नद्यां तदनन्तरं निम्मजतोः बालयोः इति अस्ति निम्मजतोः इति विभक्ति का तत्र
षष्टि
अस्तु अपि अन्यत् किं भवितुम् अर्हति तत्र
बालयोः निमज्जतोः बालयोः
षष्टि इति भवति वचनं
द्विवचनं
द्विवचनम् अस्तु तत्र षष्टि भवितुम् अर्हति अन्यत् अपि भवितुम् अर्हति वा रूपं दृष्ट्वा
सप्तमी अपि अस्ति
सप्तमी द्विवचनमपि भवितुम् अर्हति रूपं केवलं रूपं दृष्ट्वा सप्तमी द्विवचनं भवितुम् अर्हति षष्टि द्विवचनमपि भवितुम् अर्हति किन्तु तत्र तदनन्तरं तत्र किमस्ति प्राणरक्षणम् इति अस्ति इदानीं प्राणरक्षणम् इति अस्ति चेत् किं वक्तुं किं प्रष्टुं शक्नुमः कस्य प्राणरक्षणं
कस्य प्राणरक्षणम्
अतः तद्दृष्ट्वा वयं किं चिन्तयामः अत्र विभक्तिका षष्टिविभक्ति इति चिन्तयितुं शक्नुमः अस्तु अतः तत्र बालयोः षष्टि भो द्विवचनम् अपि निम्मजतोः बालयोः कः सम्बन्धः तत्र
विशेषणविशेष्य
सम्बन्धः इति समीचीनं महोदय इदानीं तत्र सत्यजितः इति अस्ति तस्य पूर्वं छात्रस्य इति अस्ति अपि कृतवतः इति अस्ति तत्र कोऽपि सम्बन्धः अस्ति वा तत्र
तदपि विशेषणविशेषसम्बन्धः अस्ति
अस्तु समीचीनं विशेष्यं किं विशेषणं किं
विशेष्यं सत्यजित अस्ति
सत्यजितः
कृतवतः छात्रस्य तत्तु विशेषणम् अस्ति
विशेषणम् अस्ति समीचीनं महोदय समीचीनम् अस्तु अग्रे तत्र रघुपतिमहोदय तत्र कृतवतः छात्रस्य सत्यजितः इति तत्र तस्य प्रथमाविभक्तिरूपं किम् अस्ति महोदय
कृतवतः इति अस्ति कुर्वन् इति कृतवतः
न कृतवत् कृतवतः
सारि अस्तु अस्तु कृतवत् कृतवत् इति अस्ति
प्रातिपदिकं कृतवत् इति कृतवत् इति प्रातिपदिकम् अतः प्रथमविभक्तिरूपं किं भवति
कृतवत् कृतवतौ कृतवताः इति भवति वा कृतवन्तः सारि
कृतवत् शब्दवत्
हा सारि कृत अस्तु अस्तु
गतवत् गतवान्
कृतवान् कृतवान् कृतवन्तौ कृतवन्तः
छात्रः कृतवान् छात्रः सत्यजित्
सत्यजित्
सत्यजित् इति हा अस्तु अतः तत्र तत्सर्वं विशेषणं भवति कृतवान् सत्यजित् कृतवान् सत्यजित् छात्रः अपि अतः कृतवान् किमपि कृतवान् अपि सः छात्रः तादृशः सत्यजित् यः अस्ति तस्य इति षष्ठी अतः सत्यजितः
प्राणरक्षणं कृतवान् छात्रः प्राणरक्षणं कृतवान्
हा इति अस्तु समीचीनं महोदय इदानीं तत्र प्राणरक्षणम् इति तस्य पदस्य विभक्ति का
हा तत् द्वितीयविभक्ति कर्मपदमस्ति कृतवान् इति इत्यस्य
अतः तत्र वाक्यं वदतु महोदय तत्र सत्यजित् इति केवलं प्रथमभागस्य कृतवतः इति स्थाने कृतवान् इति उपयुज्य सत्यजितः इति मास्तु षष्ठी मास्तु केवलं सत्यजित्
कृतवान्
सत्यजित् कृतवान् इति वाक्यं
सत्यजित् प्राणरक्षणं कृतवान् छात्रस्य
छात्रः इदानीं त्यजामः महोदय किन्तु एतत् स्वीकुर्मः सत्यजित् कृतवान् किं कृतवान्
प्राणरक्षणं कृतवान्
कस्य प्राणरक्षणं कृतवान्
बालयोः प्राणरक्षणं कृतवान्
कीदृशबालयोः कीदृशयोः
निमज्जतोः बालयोः प्राणरक्षणं कृतवान्
कुत्र
कुत्र
निमज्जतोः
नद्यां निमज्जतोः बालयोः प्राणरक्षणं सत्येतः कृतवान्
इति
छात्रः
समीचीनं महोदय इदानीं तत्र अन्वयक्रमः अस्माकं कः अस्ति तत्र आरम्भे वयं सर्वदा तत्र कर्तृपदम् आरम्भे तत्र यदि परिशीलनसमये क्रियापदं पश्यामः किन्तु यदि वदामः तत्र आरम्भे कर्तृपदं वदामः अतः सत्यजित् नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवान् तदनन्तरं यदि इच्छामः तत्र अस्ति इति क्रियापदमपि स्थापयितुं शक्नुमः नो यदि वदामः न वदामः चिन्ता नास्ति तत्र इदानीं तत्र प्राणरक्षणं कृतवान् इति अस्ति अतः तत्र वयम् अवगन्तुं शक्नुमः सत्यजितः कृतवान् किं कृतवान् प्राणरक्षणं कृतवान् अतः प्राणरक्षणम् इति कर्मपदं भवति अतः तस्य पदस्य विभक्ति अस्ति द्वितीया इति खलु हा इदानीं तत्र अग्रे शुभदा भगिनी इदानीं तत्र अत्र मूलविषयः अस्ति भगिनी तत्र किमित्युक्ते तत्र इदानीं वयं दृष्टवन्तः किं सत्यजित् नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवान् इति अतः कृतवान् इति अस्ति किं कृतवान् प्राणरक्षणं कृतवान् तस्य पदस्य विभक्ति अस्ति द्वितीया खलु कर्मपदम् इदानीं तत्र सिद्धान्तः अस्ति यदि कृतवान् इति स्थाने दीर्घवाक्यं यदि कुर्मः किन्तु कृतवान् इति स्थाने तत्र अन्यां विभक्तिं स्थापयामः तत्रापि प्राणरक्षणम् इति तस्य तत्र किमपि परिवर्तनं न भवति द्वितीयविभक्तिरूपमेव तस्य रूपं तिष्ठति खलु अतः तत्र एतत् अभ्यासं कुर्मः इदानीं तत्र कृतवतः सत्यजितः इति षष्टिरूपम् अस्ति तत्र सत्यजितः कृतवान् इति प्रथमविभक्तिरूपं दृष्टवन्तः इदानीं तत्र द्वितीयविभक्तिरूपं किं भवति सत्यजितः कृतवान् इति कृतवतः सत्यजितः इति अथवा सत्यजित् कृतवान् इदानीं सत्यजित् कृतवान् इति पदद्वयस्य द्वितीयविभक्तिरूपं किं भवति
द्वितीयाविभक्ति कृतवन्तं सत्यजितं कृतवन्तं सत्यजितं
तत्र
द्वितीय एकवचन
द्वितीय एकवचन
कृतवन्तं
तत्र सत्यजित् इति तकारान्त पदमस्ति खलु तत्र
तकारान्तपुल्लिङ्गशब्दः भगवत् समान एव भगवत् समान एव भगवान् भगवन्तौ भगवन्तः भगवन्तं भगवन्तौ भगवतः सो द्वितीया विभक्ति एकवचन भगवन्तं तदेव कृतवन्तं सत्यजितं द्वितीया एकवचन
सत्यजितम् इति हा तत्र एकनिमिषः अहमपि पश्यामि किन्तु तत्तु भगवन्तम् इति भवति खलु तत्र किञ्चित् भिन्नम् अस्ति हा किञ्चित् भिन्नम् अस्ति अस्तु एतत् मरुत् किम् अस्ति मरुत् शब्दः मरुतम् इति तकारान्त मरुत् शब्दः हा प्रायशः तत् समीचीनं भवति इति मन्ये अस्तु अस्तु
तत्
स्वीकुर्मः अस्तु
सुहृदपि
सुहृदम् इति समीचीनम् अस्तु हा इदानीं तत्र कृतवन्तं सत्यजितम् इति अस्तु इदानीं तत्र किमपि वाक्यं वदतु कृतवन्तं सत्यजितम् इति उपयुज्य तद् वाक्ये भवतु इदानीं द्वितीयविभक्तौ अस्ति अतः कर्मपदं भवति तत् खलु
अध्यक्षः कृतवन्तं सत्यजितं सम्मानितः करोति अकुर्वत्
सम्माननम् अकरोत् किन्तु तत्र षष्ठी भवति खलु कस्य सम्माननम् इति
सम्मानितं
हा किन्तु सम्मानति इति किमपि अस्तु किन्तु सरलमपि क्रियापदं स्वीकुर्मः पश्यति खलु अस्तु इदानीं तत्र वाक्यं
जनाः कृतवन्तं सत्यजितं
पश्यन्ति अस्तु इदानीं कीदृशसत्यजितं पश्यन्ति
कृतवन्तं सत्यजितं
पश्यन्ति तत्र किं कृतवन्तं सत्यजितं किमपि कृतवान् तत्र सत्यजित् किमपि कृतवान् खलु अतः एव सत्यजितं कृतवन्तं सत्यजितम् इति भवति सः किं कृतवान्
बालयोः प्राणरक्षणं निमज्जतोः बालयोः प्राणरक्षणं कृतवान्
हा इदानीं तदपि उपयुज्य अत्र नद्यां निमज्जतोः बालयोः प्राणरक्षणम् इति अत्र वाक्यद्वयं भगिनी हा मेलनं कृत्वा नद्यां निमज्जतोः बालयोः प्राणरक्षणं सत्यजित् कृतवान् इदानीं तं कृतवन्तं सत्यजितं जनाः पश्यन्ति जनाः कृतवन्तं सत्यजितं पश्यन्ति कीदृश कृतवन्तं सत्यजितम् इदानीं विवरणं तत्र किं भवति जनाः जनाः इति अन्वयक्रमः एतदेव तत्र जनाः इति कर्तृपदं पश्यन्ति इति भवत्याः वाक्ये खलु पश्यन्ति इति क्रियापदं जनाः इति कर्तृपदं मध्ये कर्मपदम् अस्ति कृतवन्तं
सत्यजितं
हा इदानीं तस्य मध्ये
नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवन्तं सत्यजितं पश्यन्ति
हा इति भवति खलु अस्तु तत्र प्राणरक्षणम् इति पदस्य विभक्ति द्वितीया किन्तु तत्र अपि पश्यन्ति इति तयोः मध्ये कोऽपि सम्बन्धः नास्ति कृतवन्तम् इति तत्र क्रियासूचकं यदस्ति तस्य एव सम्बन्धः प्राणरक्षणम् इति खलु हा इदानीम् अस्तु इदानीं समीचीनं भगिनि इदानीम् अग्रे सूर्यकुमारी भगिनि नमस्कारः तत्र इदानीं तृतीया विभक्ति उपयुज्य कृतवान् सत्यजित् कृतवन्तं सत्यजितं हा भगिनि गीताञ्जलि
क्षम्यतां महोदय जनाः रक्षितवन्तं सत्यजितं पश्यन्
तत् भिन्नं वाक्यं भवति, तत् भिन्नं वाक्यं
समीचीनं महोदय.
रक्षित रक्षितवान् सः रक्षितवान् इति अर्थे, किन्तु तद् अहं न कर्तुं इच्छामि अत्र. अत्र अत्र विषयः कः इत्युक्ते, तत्र कृतवान् इति यदस्ति तद् तत् तद् नास्ति, किन्तु षष्टिविभक्तिरूपम् अस्ति. किमर्थं तस्य पूर्वं प्राणरक्षणम् इति एव तिष्ठति इति. अतः तत्र यदि वाक्यस्य दीर्घत्वम् इच्छामः तत्र दीर्घवाक्यं कर्तुं शक्नुमः, किन्तु कृतवान् इति स्थाने अन्यत् विभक्ति स्थापयामः, अन्या विभक्ति स्थापयामः चेत् तत्र कीदृशरूपं भवति इति अस्माकं चिन्तनम् इदानीं तावदेव. तत्र प्राणरक्षणम् इति स्थाने रक्षितवान् इति भवति चेत् तद् अन्यत् विशेषणं भवति सत्यजित् पदस्य, खलु? किन्तु तद् भिन्नं वाक्यं भवति भगिनि. अत्र अहं नद्यां निमज्जतोः बालयोः प्राणरक्षणम् इति तद् तस्य परिवर्तनं न इच्छामि, केवलं तदनन्तरं किं भवति इति तावदेव.
अस्तु अस्तु महोदय. यथा यथा वयं कृतवन्तं सत्यजितम्
इति
वदामः, कृतवन्तम् अपि द्वितीयविभक्ति अत्र तु विशेषण
इति समीचीनं भगिनि. विशेषणम् अपि विशेष्यं, तत्र श्लोकः कः विशेष्यम् अपि विशेषणविषये,
यत् लिङ्गं यत् वचनं या विभक्तिश्च तत् लिङ्गं तत् वचनं सा विभक्ति
विशेषणस्य अपि इति. समीचीनं भगिनि. हा, यल्लिङ्गं यल्लिङ्गं यत् यत् वचनं या विभक्ति विशेष्यस्य तल्लिङ्गं तद्वचनं सा विभक्ति विशेषणस्य अपि अपि. समीचीनं भगिनि. अतः तत्र कृतवतः इति अस्ति पदम् अस्ति, सत्यजितः इति अस्ति, सत्यजितः इति पदस्य विभक्ति अपि वचनम् अपि लिङ्गं किम्?
सत्यजितः तु षष्टि एकवचनम्.
एकवचनम् अपि लिङ्गं किम्?
पुंलिङ्गं महोदय.
पुंलिङ्गम्. अतः कृतवतः इति पदस्य
कृतवतः समानेव पुंलिङ्गम्.
अतः षष्टि
एकवचन
पुल्लिङ्गपदम् इति. अतः तत्र यदि सत्यजितः इति तस्य परिवर्तनं कुर्मः, कृतवतः इति पदस्य अपि परिवर्तनं भवति. अस्तु, समीचीनम्. इदानीं सूर्यकुमारी भगिनी, तत्र कृतवतः सत्यजितः इति स्थाने तृतीया विभक्ति स्थापयामः. हा, कृतवता सत्यजिता. अस्तु, इति इदानीं कृतवता सत्यजिता इति उपयुज्य किमपि वाक्यं, लघुवाक्यं वदतु. तृतीयविभक्ति कुत्र भवति?
बालकाः
न तत्सर्वम् अनन्तरं, केवलं कृतवता सत्यजिता इति उपयुज्य लघुवाक्यं किमपि, भवत्याः वाक्यं लघुवाक्यम्. यदा यथा शुभदा भगिनी उक्तवती जनाः पश्यन्ति इति, तादृश लघुवाक्यं
कृतवता सत्यजिता.
तृतीयविभक्ति कुत्र भवति? न तस्य जनैः इति न, तृतीयविभक्ति उपयुज्य लघुवाक्यं, सरलवाक्यं किमपि वदतु.
कृतवता सत्यजिता.
न भगिनि, केवलं तृतीयविभक्ति उपयुज्य लघुवाक्यं वदतु, अन्यत् किमपि वाक्यं सरल, यद् वाक्यं भवती जानाति, सरलसरल अतिसरलवाक्यं यद् भवती जानाति, यस्मिन् तृतीयविभक्तिपदम् अस्ति, तादृशवाक्यं वदतु. अतिसरलवाक्यं
कृतवता सत्यजिता
भगिनी. एतत् त्यजतु, सत्यजित् सर्वं त्यजतु, यत् भवती जानाति पूर्वं पठितवती, तत्र यद् अस्ति अतिसरलवाक्यं तृतीयविभक्तिपदं यस्मिन् अस्ति तादृशवाक्यं वदतु. तत्र अहं वृक्षं पश्यामि इति सरलवाक्यमस्ति, द्वितीयविभक्तिपदम् अस्ति, तादृशसरलवाक्यं वदतु तृतीयविभक्ति यस्मिन् अस्ति.
बालौ सत्यजित
भगिनि सत्यजित् इति अस्तु अस्तु, अन्यत् अन्यत् अन्यं पृच्छामि भगिनि, चिन्ता मास्तु. हा गीताञ्जलि भगिनि, तृतीयविभक्ति उपयुज्य अतिसरलवाक्यं भवत्याः
वाक्यं,
न सत्यजित् इति त्यजतु, केवलम् अन्यत् किमपि वाक्यं, किमपि सरलवाक्यम् अभ्यासपुस्तके कुत्रापि भवतु. मया पुस्तकं पठितम् अथवा तादृश अन्यत् वाक्यं, कर्मणि प्रयोगः न इच्छामश्चेत् अन्यत् वाक्यं, हस्तेन खादामि इति तादृशः, अथवा तत्र लक्ष्मणेन सह रामः गच्छति, क्रीडति कन्दुकेन, क्रीडति खलु कन्दुकेन क्रीडति इति सरलवाक्यम्. इदानीं तत्र गच्छति इति उपयुज्य सत्यजितः इति अस्ति, तस्मिन् स्थाने कृतवतः सत्यजितः इति स्थाने तृतीयविभक्ति उपयुज्य एकं सरलवाक्यम्.
कृतवता इत्युक्ते कृतवता इत्युक्ते तृतीया कृतवता.
अस्तु तत्र अन्यत् एकं सरलवाक्यं
कृतवता सत्यजित
तत्र
प्रसिद्धव्यं
किं भगिनि,
कृतवता सत्यजिता प्रसिद्धव्यं प्रसिद्धव्यं,
न भगिनि तत्र भवत्याः वाक्यं वदतु, तत्र बालकः सत्यजिता सः गच्छति, समीचीनं वा वाक्यं,
बालकः सत्यजिता सः
गच्छति. इदानीं कीदृशः सत्यजिता,
कीदृश इत्युक्ते तृतीया एकवचन,
न सत्यजितः इति अस्ति, तस्य विशेषणमस्ति कृतवतः इति, अतः
कीदृश अस्तु, बालकः
कृतवता
सत्यजिता
सः
गच्छति.
इदानीं किं कृतवान् एषः सत्यजित्, इदानीम् अत्र
बालकः नद्यां
निमज्जतोः बालयोः
निमज्जतोः बालयोः
प्राणरक्षणं
कृतवता
सः गच्छति. अर्थः स्पष्टः वा,
निमज्जतोः इत्युक्ते
तत्र
निमज्जतोः विभक्तिरूपं महोदय,
नरेश महोदय विभक्ति का अत्र
सप्तमी विभक्ति
निमज्जतोः षष्टिद्विवचनं रूपं दृष्ट्वा सप्तमी अपि भवितुमर्हति, किन्तु अत्र षष्टि, कस्य प्राणरक्षणं, बालयोः प्राणरक्षणं, कीदृशबालयोः प्राणरक्षणं, निमज्जतोः बालयोः प्राणरक्षणं, कुत्र निमज्जतोः, नद्यां निमज्जतोः बालयोः. तत्र निमज्जतोः इति पदस्य प्रातिपदिकं किं, प्रथमविभक्तिरूपं किम्,
निमज्जन अकारः
निमज्जत् इति प्रातिपदिकं निमज्जन् पठत् पठन् पठन् इति पठन् हा नकारान्तपदं हा निमज्जन् निमज्जन् निमज्जन्तौ निमज्जन्तः निमज्जन्तम् इति तादृशरूपं भवति तस्य पदस्य. अस्तु, इदानीं तृतीया विभक्ति कृतं, सर्वे अवगच्छन्ति वा अत्र वयं किं कुर्वन् स्मः इति? तत्र यत् वाक्यं दत्तमस्ति कृतवतः सत्यजितः इति षष्टिरूपं यदस्ति, षष्टिविभक्तिरूपं यदस्ति, तस्मिन् स्थाने वयम् अन्या विभक्ति अपि अन्यां विभक्तिम् अपि स्थापयितुं शक्नुमः. तस्य पूर्वं यदस्ति तस्य परिवर्तनं न भवति. प्राणरक्षणं इदा सर्वदा द्वितीयाविभक्तौ एव तिष्ठति इति. इदानीं सूर्यकुमारी भगिनी, इदानीं तत्र चतुर्थी विभक्ति सुलभं भवति चेत् लघुवाक्यम् अतिसरल, तत्र सत्यजितः अपि नास्ति कोऽपि नास्ति, भव अभ्यासपुस्तकं दृष्ट्वा अपि भवती वक्तुं शक्नोति. अतिसरलवाक्यं चतुर्थी विभक्ति पदं तस्मिन् भवेत्. सूर्यकुमारी भगिनि
रामाय.
अस्तु, किन्तु वाक्यं केवलं रामाय इति पदम् अस्ति, वाक्यं खलु वाक्यमस्ति. वाक्यम् इत्युक्ते क्रियापदं भवेत्, कर्तृपदं भवेत्, चतुर्थी विभक्तिपदमपि भवेत् खलु भगिनि?
रामाय हनुमन्तं
हनुमन्तमिति विभक्ति का तत्र? अतः भगिनि अहं वदामि, अतीसरलवाक्यं, तत्र बहु अनेकानि पदानि मा योजयतु. रामाय नमः इति एकम् अस्ति, किन्तु तद्विहाय
पुस्तकं ददा,
रामाय पुस्तकं ददामि इति खलु सरलवाक्यं वा? किं भगिनि? भगिनि भगिनि एकनिमिषः एकनिमिषः, तत्र आगच्छामः अत्र अतः. श्रीकुमारी भगिनि समीचीनं, अस्तु इदानीम् एतत् स्वीकुर्मः. रामाय पुस्तकं
ददामि.
अस्तु, इदानीं रामाय इति स्थाने सत्यजित् इति स्थापयतु, तत्र किं भवति? रामाय इति मास्तु इदानीं, तत्र
सत्यजिते
अहं सत्यजिते पुस्तकं ददामि. समीचीनं, बहु समीचीनम्. इदानीं तत्र कृतवान् सत्यजित् इति अस्ति, अतः कृतवान् इति तस्य पदं किं भवति अस्मिन् भवत्याः वाक्ये?
कृतवन्ते
कृतवते
पुस्तकं ददामि.
अहं कृतवते सत्यजिते पुस्तकं ददामि. अस्तु, इदानीं समीचीनं भगिनि. इदानीं तस्य पूर्वं यदस्ति तदपि स्थापयतु. इदानीं
तत्कारणात्
चिन्ता मास्तु भगिनि, चिन्ता मास्तु, सर्वं चिन्ता मास्तु भगिनि. इदानीं तत्र कृतवतः सत्यजितः इति स्थाने कृतवते सत्यजिते इति स्थापितवन्तः. इदानीम् अहं कृतवते सत्यजिते पुस्तकं ददामि, किन्तु कृतवते इति कृतवतः इति पूर्वं यदस्ति तद् अत्रापि स्थापितुं शक्नुमः. अतः वाक्यं किं भवति? अहं सूर्यकुमारी भगिनी, किं कृतवान् सत्यजितः? प्राणरक्षणं कृतवान् खलु? अतः वाक्यं किं भवति? अहं
कृतवते सत्यजिते
पुस्तकं ददामि. किन्तु किं कृतवान् सः?
किं कृतवान्?
किमपि कृतवान्? प्राणरक्षणम् इति अस्ति खलु तत्र. अतः अहं नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवते सत्यजिते
पुस्तकं
ददामि। अवगच्छति वा? अहं पुस्तकं ददामि। कस्मै ददामि? सत्यजिते ददामि। कीदृश सत्यजिते ददामि? कृतवते सत्यजिते ददामि। सः किं कृतवान् एषः सत्यजितः? नद्यां निम्मजतोः बालयोः प्राणरक्षणं कृतवान्। अतः अहं नद्यां निम्मजतोः बालयोः प्राणरक्षणं कृतवते सत्यजिते पुस्तकं ददामि। समीचीनं वा? तत्र अन्वयक्रमः अस्ति। किं किं परिवर्तनं, कस्य परिवर्तनं भवति, कस्य परिवर्तनं न भवति इति ज्ञातव्यमस्ति। अतः एषः अभ्यासः। समीचीनं वा?
आं महोदय, धन्यवादः।
हा अस्तु, समीचीनं भगिनि। इदानीं तत्र लक्ष्मी भगिनि, ओ लक्ष्मी भगिनी पठितवती, क्षम्यताम्। इदानीं ललिता भगिनि, इदानीम् अग्रे तत्र चतुर्थी कृतवन्तः, पञ्चमी भवती, पञ्चमी विभक्ति उपयुज्य लघुवाक्यं वदतु भगिनि प्रथमतया।
प्रश्नः महोदय, अधुना तृतीया चतुर्थी द्वयोः विभक्तयोः महोदय निमज्जयोः बालकयोः प्राणरक्षणं, तत्तु किमपि
तस्य परिवर्तनं
न भवति
इति इति वार्ता, इति वार्ता,
ओ इति
अतः अभ्यासं कुर्मश्चेदेव एतस्य ज्ञानं भवति खलु। नो चेत् वयं परिशीलयामः, अस्तु वाक्यम् अस्ति, अहम् अवगतवान्, अवगतवती इति अग्रे गच्छामः। किन्तु कीदृशवाक्यम्? अत्र दीर्घवाक्यम् अस्ति खलु, अतः एतादृशानि वाक्यानि यदि वयं रचयितुम् इच्छामः, कः नियमः, किं किं कर्तव्यम् इति अभ्यासः, तावदेव। अस्तु भगिनि, हा समीचीनम्। अरुणा भगिनी नमस्कारः। हा अस्तु, ललिता भगिनी पञ्चमी विभक्ति उपयुज्य सरल, अतिसरलवाक्यम्।
अहं नद्यां निमज्जतोः बालयोः,
भगिनि अहं किं न प्रथमतया न प्रथमतया अहं केवलम् एतदेव उक्तवान्, अतिसरलपञ्चमी विभक्ति पदं वाक्ये भवतु, तादृश अतिसरलवाक्यम् एकं वदतु। तत्र सत्यजितः न कोऽपि भवेत्, केवलं तत्र पदत्रयं पदचतुर्थ तावत्, तत् पञ्चपदस्य अधिकं न भवेत्।
बालकः वृक्षात् फलं
स्वीकरोति।
अस्तु समीचीनं भगिनि, अस्तु धन्यवादः। अस्तु, बालकः वृक्षात् फलं स्वीकरोति। इदानीम् इदानीं फलात् इति स्थाने सत्यजित् इति स्थापयतु, किं भवति?
सत्यजितः।
हा अस्तु, इदानीं वाक्यं वदतु, बालकः वृक्षात् फलं स्वीकरोति इति भवत्याः वाक्यम् इदानीं।
बालकः सत्यजितः फलं स्वीकरोति।
समीचीनम्, अस्तु, कीदृशः सत्यजितः?
कृतवतः सत्यजितः।
अस्तु, कृतवतः इदानीं तत्र सत्यजितः इति, समीचीनं भगिनि, अस्तु। इदानीं तत्र कृतवतः इति स्थाने तत्र उत्तमः सत्यजित् इति अस्ति इति चिन्तयतु, तत्र किं भवति, रूपं किं भवति? बालकः
उत्तमतः, भवता उत्तमता,
पञ्चमी किमस्ति उत्तमः इति उत्तमः इति पदस्य
उत्तमतः
न पञ्चमीभक्तिरूपं देवः शब्दस्य पञ्चमीभक्तिरूपं किम् अस्ति एकवचने
उत्तमेन उत्तमया उत्तमः
न
देवः
किं किम्
उत्तमात् उत्तमात्
समीचीनम् अस्तु उत्तमात् उत्तमात् सत्यजितः बालकः उत्तमात् सत्यजितः फलं स्वीकरोति इदानीं तत्र तस्य पूर्वं यदस्ति इदानीं स्थापयतु बालकः
नद्यां निमज्जतोः
सत्यजितः
स्वीकरोति
समीचीनं भगिनि अस्तु धन्यवादः इदानीं लक्ष्मी भगिनी इदानीं लक्ष्मी भगिनी सप्तमी भक्तिरूप इति उपयुज्य सरलवाक्यम् अतिसरलवाक्यम् सत्यजितः कोऽपि मास्तु केवलं तत्र सप्तमी भक्तिपदं भवेत् लघु अतिलघुवाक्यम् अतिसरलवाक्यम् रामे करुणा अस्ति अस्तु रामे करुणा अस्ति रामे विश्वासः अस्ति इति अस्तु समीचीनं भगिनि अस्तु करुणा अस्ति इति चिन्तयामः अस्तु इति रामे इति स्थाने इदानीं सत्यजित् इति स्थापयतु किं भवति सत्यजित् इति पदस्य सप्तमीविभक्तिरूपं किं भवति हा सत्यजिति अस्तु समीचीनं हा सत्यजिति करुणा अस्ति हा सत्यजिति करुणा अस्ति इदानीं कृतवतः इति अस्ति तस्य हा कृतवती सत्यजिति करुणा अस्ति इदानीं तस्य पूर्वं यदस्ति तदपि स्थापयतु
नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवती सत्यजिति करुणा अस्ति
बहु समीचीनमस्ति भगिनि अस्तु अभ्यासः समाप्तः अस्तु किन्तु इदानीं तत्र सिद्धान्तः स्पष्टः खलु तत्र प्राणरक्षणं कृतवान् सत्यजित् नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवान् इदा तत् स्वीकृत्य यदि अन्यत् वाक्यं रचयामः दीर्घवाक्यं रचयामः तत्र सत्यजित् कृतवान् इति स्थाने अन्या विभक्ति भवति तस्मिन् सन्दर्भे तस्य परिवर्तनं भवेत् किन्तु तस्य पूर्वं यदस्ति तस्य परिवर्तनं कदापि न भवेत् खलु अस्तु इदानीम् अग्रे गच्छामः तत्र सत्यजितः सम्माननसमारम्भः प्रवर्तमानः अस्ति इति वाक्यमस्ति इदानीं तत्र नरेश महोदय तत्र अन्वयक्रमः यद् अस्ति तत्र अन्वयक्रमः वाक्यस्य इत्युक्ते आरम्भे वयं कर्तृपदं वदामः अन्ते क्रियापदं वदामः मध्ये अन्यत् यत्किमपि अस्ति मध्ये स्थापयामः अतः तत्र नद्याम् इति आरभ्य अस्ति इति पर्यन्तं यद् वाक्यम् अस्ति तत्र क्रियापदं किम् अस्ति
अस्ति
अस्ति कर्तृपदं किम् अस्ति
सम्माननसमारम्भ
हा प्रवर्तमानः अस्ति हा तत्र अतः तत्र वाक्यं सम्माननसमारम्भः प्रवर्तमानः अस्ति किन्तु तत्र यदि अत्र किं किञ्चित् परिवर्तनं कुर्मः तत्र क्लेशः भवति खलु, तत्र कस्य सम्माननः इति. अतः तत्र एतद् रूपं स्वीकृतमस्ति, नो चेत् सम्माननसमारम्भः प्रवर्तमानः इति एव आरम्भे वाक्यस्य आरम्भे भवेत्, किन्तु तत्र क्लेशः भवति इति कृत्वा एतद् रूपं स्वीकृतमस्ति. अस्तु, समीचीनम्. अस्तु, इदानीं तत्र अग्रे गच्छामः. महोदय, तत्र अध्यक्षः यद् वदति तत्र तत्र आरभ्य पठति वा?
अध्यक्षः: सर्वेभ्यः नमः. महत्यां विपदि समागतायाम् आत्मनः प्राणान् त्रीणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय वयम् अस्यां संसदि समागताः स्मः.
हा, अस्तु. इदानीं तत्र अस्मिन् वाक्ये तत्र क्रियापदं किम् अस्ति?
स्मः.
हा, स्मः. अतः तत्र कर्तृपदं किं भवति? स्मः इत्युक्ते उत्तमपुरुष
वयं,
वयं बहुवचनं वयम् इति एव. अस्तु, वयं स्मः, वयं स्मः इति अस्ति. अस्तु, तत्र वयम् इति पदस्य विशेषणं किमपि अस्ति वा अत्र?
वयं आत्मनः प्राणान्तरणे सरित महत्
स्मः इति पूर्वं यदस्ति समागताः,
समागताः
वयं समागताः स्मः, तत्र वयं स्मः समागताः स्मः, एकस्मिन् स्थले वयं सर्वे स्मः समागताः स्मः. कुत्र स्मः?
संसदि.
संसदि, संसद् इति पदं, तस्य सप्तमीभक्तिरूपं संसदि. संसदि इति पदस्य विशेषणम् अस्ति वा?
अस्याम्,
अस्याम् इति. हा, अस्यां संसदि समागताः स्मः, स्मः वयम् अस्यां संसदि समागताः स्मः. इदानीं तत्र किमर्थम् इति
समागताः पदस्य विषय
समागताः आगतः इत्युक्ते किम्? अतिथिः आगतः, हि हेस् कम् इत्युक्ते तत्र
क्रियापदस्य
आगतः. सत्यं भगिनि, आगतः, पठितः, किन्तु तत्र एतत् कर्तृरूपे अस्ति, सः आगतः इति. समागताः
वचनरूपं,
बहुवचनरूपं, समागताः इति. सत्यं भगिनि. अस्तु, इदानीं तत्र किमर्थं समागताः स्मः इति तस्य उत्तरं दीर्घवाक्यम् अस्ति, इदानीं तदपि पश्यामः अत्र. हा, हा, अस्तु, किन्तु तत्र आरम्भतः पश्यामः. हा, सम्माननाय इति एव समीचीनं महोदय, किन्तु तत् समीचीनं, किन्तु तस्य पूर्वं यदस्ति तदपि किञ्चित् एकम् एकं परिशीलयामः. समीचीनं महोदय. अस्तु, अग्रे रघुपतिमहोदय, तत्र महत्यां विपदि इति तत्र किञ्चित् वदति वा?
एकवारं महोदय, एकवारं.
क्षम्यतां महोदय, वयं समागताः तु विशेषणविशेष्यभाव एव न?
हा, सत्यं भगिनि. हा, सत्यम्. अतः एव तत्र यदि वदामः अतिथिः आगतः अस्ति इत्युक्ते अतिथिः आगच्छति इति तत् क्रियापदरूपम्, किन्तु अतिथिः आगतः अस्ति इत्युक्ते अस्ति इति क्रियापदम्, आगतः विशेषणं भवति अतिथिः इति पदस्य. अस्ति इति तत्र अकर्मकधातुः अस्ति, अस् धातुः अकर्मकः अस्ति इति कृत्वा अतिथिः आगतः अस्ति इति भवति.
क्षम्यताम्, अतिथिः आगताः स्मः विषु
अतिथिः
अतिथयः
बहुवचनं. ओके, बहुवचनं,
सत्यं.
धन्यवादः, धन्यवादः.
अस्तु महोदय,
आं महोदय, महत्यां किं वक्तव्यं महोदय? अत्र
वाक्यं विपत्ति, महत्यां विपत्ति, तत्र विभक्तिका
विपत् हा विपत् इति विपत् विपत् इति अस्ति, तत्र सप्तमी विभक्ति विशेषणविशेषम् अस्ति. महत्यां विपदि, महत्यां विपदि समागतः इत्यस्य समागता इति इत्यस्य सप्तमी विभक्ति समागतायाम् इति सीतायाम् इति तादृश अस्ति.
तत्र विशेष्यं किं, विशेषणं किं तत्र?
विपदि इति विशेष्यमस्ति, महत्यां समागतायां विपदि
इति विशेषणं भवति, विशेषणद्वयं. समीचीनं महोदय. तत्र समागतायां महत्यां विपदि इति भवति. तस्मिन् सन्दर्भे तादृशसन्दर्भे तस्मिन् सन्दर्भे
किं कृतवान्?
तत्र समागताया, समागता इति विपदि, विपदः, विपद् इत्युक्ते यत् पतितं. वयं किमपि न कृतवन्तः, किन्तु तद् आपतितम्. आपतिता इति अपि आगता इति अर्थे.
विपत् इति स्त्रीलिङ्गपदमस्ति, अतः
स्त्रीलिङ्गपदम्. अतः महति, महत्यां, नदी, नदी शब्दः.
आमाम्, अतः सर्व स्त्रीलिङ्गे एव अस्ति विशेषणानि, विशेषणानि,
विशेषणद्वयमपि स्त्रीलिङ्गे अस्ति. समीचीनं महोदय. अग्रे,
आत्मनः प्राणान् तृणीकृत्य, आत्मनः, आत्मन् इति आत्मा, आत्मनः इति षष्ठी भक्ति, आत्मनः प्राणान् तृणीकृत्य, तृणीकृत्य सरितः जले,
इत्युक्ते
तृणीकृत्य अवगणय्य,
तत्र आत्मनः इति स्थाने अन्यत् पदं
स्वस्य
प्राणान्, प्राण तु तत्र प्राणाः, पञ्चप्राणाः इति एव चिन्तनम्. अतः
नित्य बहुवचनम्,
नित्य बहुवचनम्. अतः आत्मनः प्राणान्, प्राणान् इति कर्मपदम्, प्राणान् तृणीकृत्य इत्युक्ते तस्य
अवगणय्य, गणनाम्
अकृत्वा किं किम् अभवत्?
सरितः जले, जले निमज्जतोः, निमज्जतौ बालको,
इदानीं तत्र जले इति अस्ति. जले, जले इति पदस्य विभक्ति किल
सप्तमी अस्ति. तस्य जले, सरितः जले,
सरित्, सरितः जले. समीचीनं महोदय. सरितः जले, तृणीकृत्य सरितः जले, सरितः षष्ठी, जले सप्तमी. इदानीं
जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः.
इदानीं समीचीनं महोदय. इदानीं तत्र सत्यजितः प्राप्तम्. अस्तु, इदानीं यत् पूर्वं वयं कृतवन्तः तत्र सत्यजित् इति प्रथमविभक्तिरूपम् इदानीं वक्तुं शक्नुमः महोदय. तत्र पूर्वम् एतत् कृतवन्तः सत्यजित्, न कृतवतः सत्यजितः इति आरम्भे यद् वाक्यमासीत्, सत्यजित् कृतवान्, किं कृतवान् इति तद् विवरणं दत्तवन्तः. तादृश अत्र सत्यजित् रक्षितवान् इति रूपं स्वीकृत्य वदतु महोदय वाक्यम्.
अस्तु अस्तु, किं करणीयं? सत्यजितः
महत्यां विपदि इति, महत्यां तत्र महोदय, तत्र आरम्भे वाक्यं नद्याम् इति आरभ्य सत्यजितः इति पर्यन्तम् आसीत् खलु भागं. तत्र किं कृतवन्तः वयं? सत्यजित् नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवान् इति वाक्यं स्थापितवन्तः खलु वयं. तादृशवाक्यं महत्यां विपदि आरभ्य रक्षितवतः सत्यजितः, तत् तावत् पर्यन्तं तत् भागं स्वीकृत्य सत्यजित् रक्षितवान्.
अस्तु,
सत्यजित् आरम्भे रक्षितवान् अन्ते.
अस्तु, अस्तु, सत्यजित् सत्यजित् वदामि, रक्षितवान् एकवारं वदामि, रक्षितवान्
समीचीनं.
सत्यजित् रक्षितवान्, सत्यजित् बालकौ रक्षितवान्, सत्यजित् निमज्जते बालकौ रक्षितवान्, सत्यजित् निमज्जन्तौ बालकौ रक्षितवान्, सत्यजित् आत्मनः प्राणान् तृणीकृत्य रक्षितवान्.
इदानीं पूर्णवाक्यं वदतु इदानीं तत्र. सत्यजित्
सत्यजितः महत्यां
सत्यजित्
आत्मनः प्राणान्
तृणीकृत्य
सत्यजित् महत्यां समागतायां विपदि
समीचीनं महोदय.
अस्तु, सत्यजितः महत्यां सारि समागतायां महत्यां विपदि आत्मनः प्राणान् तृणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवान्.
हा इति सर्वे अवगच्छति वा तावत् पर्यन्तम्?
महोदय, यदि सरिति जले इति अपि भवितुम् अर्हति महोदय.
कथं तत्र
कीदृशः?
अस्तु 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 भगिनि, तत्र अस्तु, तत्र एतत् चिन्तयतु, तत्र भवती गृहे वसति खलु? हा अस्तु, भवत्याः गृहम् इति वक्तुं शक्नुमः वा? हा अस्तु, भवत्याः गृहे अनेकानि पुस्तकानि सन्ति इति वाक्यं भवति खलु? अस्तु, तत्र गृहे इति पदस्य विभक्ति का?
सप्तमे.
अस्तु, भवत्याः इति पदस्य?
तत्तु षष्ठी एकवचनम्.
अस्तु,
किन्तु मम प्रश्नः, यदि सरिति इति सप्तमी अस्ति चेत् सप्तमी विशेषणविशेष्यभाव सरिति जले इति अपि भवितुम्
अर्हति. तत्र सरिति भगिनि भगिनि एकं चिन्त्यामः. अस्तु, प्रश्नः इदानीम् अवगच्छामि. अस्तु अस्तु, तत्र नियमः कः अस्माकं विशेषणं विशेष्य तत्र श्लोकः कः?
समानेव.
किं द्रष्टव्यं वयं? समान
विभक्ति वचनलिङ्गम्.
अस्तु, इदानीं तत्र जलम् इति पदस्य वचनं किम्? जले इति अस्ति, वचनं किम्?
जले तु एकवचने सप्तमी
सप्तमीभक्ति. अस्तु, सरिति इति तत्र भवती वदति सरिति इति अपि तत् सप्तमीभक्ति अस्ति, अपि एकवचने अस्ति,
एकवचने.
अस्तु, सरिति इति पदस्य लिङ्गं किम्?
ओ सरि पुंलिङ्ग.
न सरिति इति स्त्रीलिङ्गपदं.
ओ स्त्रीलिङ्गपदम्. ओ
जलम् इति नपुंसकलिङ्गपदम्. अतः तत्र मम गृहे इति तादृशरूपम् अस्ति. तत्र कस्य जले इति?
अस्तु, किन्तु यदि किं जले अन्य किमपि यदि स्त्रीलिङ्गपदम् अस्ति अत्र जलस्य समानार्थक, तदनन्तरं
तत्र भवति. अस्तु, किन्तु किन्तु अत्र अत्र तु षष्टि एव अस्ति, अत्र तु षष्टि एव. अस्तु अस्तु, अग्रे शुभदा भगिनि. इदानीं तत्र निमज्जन्तौ बालकौ इति पदस्य तत्र सम्बन्धः अस्ति वा पदद्वय मध्ये?
महोदय, विशेषणविशेषभाव
भावः अस्ति, कीदृश बालकः तत्र विभक्ति का तत्र
द्वितीय द्विवचन
तत्र रूपं दृष्ट्वा किं तत्र रूपं दृष्ट्वा प्रथमविभक्ति अपि भवितुम् अर्हति खलु बालकौ इति अस्ति किन्तु किमर्थं तत् द्वितीया एव
अत्र कर्मपदमस्ति महोदय
रक्षितवान् बालकौ बालकं रक्षितवान् बालकौ रक्षितवान् बालकान् रक्षितवान् सत्यजित् इति समीचीनं भगिनि अस्तु इदानीं तत्र रक्षितवतः सत्यजितः इति अस्ति तस्य पूर्वम् इदानीं परिशीलितवन्तः इदानीं तत्र अपि वयम् अस्यां संसदि समागताः स्मः इति तदपि दृष्टवन्तः इदानीं सम्माननाय इति स्वीकुर्मः तत्र सम्माननाय वयम् अस्यां संसदि समागताः स्मः वयं किमर्थं स्मः अस्यां संसदि सम्माननाय अस्यां संसदि समागताः स्मः वयं कस्य सम्माननाय इदानीं तत्र वयम् इति आरभ्य वयं अस्यां संसदि समागताः स्मः किमर्थम् इति इदानीं तत्र वाक्यं वदतु भगिनि तत्र वयम् इति आरम्भे स्मः इति अन्ते
वयं सत्यजितः सम्माननाय अस्यां संसदि समागताः स्मः
इदानीं तस्य उपरि यदि इच्छामः तत्र किं वक्तुं शक्नुमः वयं निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय अस्यां संसदि समागताः स्मः वयं सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय अस्यां संसदि समागताः स्मः अथवा पूर्णम् अपि वाक्यं वयम् इति तदनन्तरं किं भवति वदतु भगिनि
वयं महत्यां विपदि समागतायाम् आत्मनः प्राणान् स्वीकृत्य तृणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय अस्यां संसदि समागताः स्मः
इति भवति समीचीनं वा
आं महोदय
इदानीं तत्र अस्माकं कार्यं किमर्थम् एतत् कुर्मश्चेत् एतावत् पर्यन्तं वाक्यानि दीर्घानि आसन् किन्तु अत्र बहु किमपि अनेकाः अंशाः सन्ति अतः तत्र परिशीलनं तेषां परिशीलनं भवति चेत् सुलभं भवति इति अतः अस्तु अतः तत्र
तत् समानवाक्यं वयम् आदौ इति वदामः महोदय समागताः वयं
तदपि समीचीनमेव वयं समागताः वयम् अथवा समागताः स्मः इति अस्तु भगिनि तदपि वयं समागताः महत्यां विपदि तत् सर्वम् उक्त्वा अस्यां संसदि स्मः इति तदपि वक्तुं शक्नुमः समीचीनं भगिनि अस्तु अग्रे
समीचीन अभ्यास महोदय बहु समीचीनं
धन्यवादः अस्तु सूर्यकुमारी भगिनि इदानीम् अग्रे गच्छामः तत्र अग्रे किम् अस्ति
अयं धीरः बालकः प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरता पुरस्कारान् प्राप्तवान् अस्ति
अस्तु समीचीनम् इदानीं तत्र क्रियापदं किम् अस्ति अस्मिन् वाक्ये
अस्ति
कर्तृपदं
कर्तृपदं
कः अस्ति प्रधानमन्त्रिणः मन्त्रिणः इति मन्त्रिणः इति विभक्ति प्रथम नास्ति
बालकः अस्ति
बालकः अस्ति धीरः बालकः अस्ति समीचीनम् अस्तु भगिनि समीचीनम् अयं धीरः बालकः अयम् अपि धीरः विशेषणम् अस्ति अयं धीरः बालकः अस्ति अन्यत् विशेषणम् अस्ति वा अस्मिन् वाक्ये बालकपदस्य
प्राप्तवान्
हा समीचीनं भगिनि समीचीनं प्राप्तवान् हा अयं धीरः बालकः प्राप्तवान् अस्ति इदानीं प्रश्नः उदेति तत्र किं प्राप्तवान् एषः धीरः बालकः अथवा अयं धीरः बालकः किं प्राप्तवान् अस्ति
धीरतापुरस्कारान्
हा धीरतापुरस्कारान् प्राप्तवान् अस्ति धीरतापुरस्कारान् इति विभक्ति तत्र विभक्ति का तत्र पुरस्कारान्
विभक्ति एकवचनं
द्वितीया विभक्ति किम् उक्तवती प्रथमविभक्ति एकवचनं वा
प्राप्तवान्
प्राप्तवान् इति पदस्य विभक्ति का प्राप्तवान् इति पदस्य विभक्ति का अस्तु 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 गीतञ्जलि भगिनी भवती अग्रे वदतु तत्र प्राप्तवान् इति पदस्य विभक्ति का
प्राप्तवान् प्रथमविभक्ति एकवचन एव
बालकः इति पदस्य विशेषणं प्राप्तवान् अस्तु गीतञ्जलि भगिनी समीचीनम् अस्तु इदानीम् अग्रे वदतु तत्र धीरतापुरस्कारान् इति पदस्य विभक्ति का
कर्मपदं बहुवचनं
कर्मपदं द्वितीयविभक्ति बहुवचनम् अतः प्रथमविभक्ति एकवचनरूपं किं भवति
धीरतापुरस्कारं
न तत्र लिङ्गं किं रान् इति अस्ति चेत् न न तत्र लिङ्गं किं पुरस्कारान् इति अस्ति चेत् लिङ्गं किं भवेत्
ओ नपुंसकलिङ्गं नपुंसकलिङ्गं न महोदय न जानामि
अस्तु तत्र वनम् इति पदस्य रूपं वदतु भगिनि वनं
वनं वनं वने वनानि
द्वितीयविभक्तिरूपं समानेव अस्तु अस्तु इदानीं देवः पदस्य प्रथमविभक्तिरूपं
देवः देवौ देवाः देवं देवौ देवान्
हा अस्तु धीरतापुरस्कारान् इति अस्ति कर्मपदमस्ति
द्वितीय बहुवचन पुरस्कारम्
अस्ति चेत् पुरस्कारमस्ति चेत् नपुंसकलिङ्गपदम् इति स्वीकुर्मश्चेत् तत् वनं वने वनानि इति भवति खलु भगिनि अस्तु किन्तु तत्र प्रथमविभक्तिरूपं किम् अस्ति एकवचने
रामः
अस्तु अतः अत्र प्रथमविभक्ति एकवचनरूपं किं
धीरता पुरस्कारः
हा पुल्लिङ्गपदं समीचीनं भगिनि धीरता पुरस्कारः पुरस्काराः इति प्रथमविभक्ति बहुवचनरूपं तस्य द्वितीयविभक्तिरूपं पुरस्कारान् इति धीरता पुरस्कारान् प्राप्तवान् एषः अथवा अयं धीरः बालकः धीरता पुरस्कारान् प्राप्तवान् अस्ति इदानीं तत्र धीरता पुरस्कारान् इति तत्र तस्य पूर्वं यदस्ति तत्र स्थूलक्षरैः लिखितम् अस्ति तत्र किं किम् अस्ति भगिनि पठति वा
प्रधानमन्त्रिणः मुख्यमन्त्रिणः
हा अतः तत्र विभक्ति का तत्र प्रधानमन्त्रिणः
षष्टि एकवचनं महोदय
प्रधान प्रातिपदिकं किम्
न प्रातिपदिकं तु प्रधान मन्त्रिणः प्रधानमन्त्रिन्
प्रधानमन्त्री नकारान्तपदम् आत्मन् आत्मनः प्रधानमन्त्री प्रधानमन्त्री मन्त्रिन् किन्तु प्रथमविभक्तिरूपं भवति प्रधानमन्त्री इति दीर्घैकारः तस्य षष्टिरूपं भवति प्रधानमन्त्रिणः तादृश एव मुख्यमन्त्रिणः अपि तत्र मन्त्री मन्त्रिण् इति प्रधानमन्त्री वा मुख्यमन्त्री वा समानरूपम् अस्तु अतः षष्टिः भवितुम् अर्हति एकवचनरूपम् अथवा अन्यत्रापि भवितुम् अर्हति वा तत्र रूपं केवलं रूपं दृष्ट्वा
द्वितीयबहुवचनं
द्वितीया बहुवचनम् इति वा अस्तु अपि एकवचने एव पञ्चमी अपि एकवचने तदपि भवितुम् अर्हति अतः तत्र इदानीं विकल्पः अस्ति तत्र का विभक्ति समीचीनम् इति अतः धीरतापुरस्कारान् प्राप्तवान् अस्ति तत्र का विभक्ति
पञ्चमी विभक्ति महोदय
हा पञ्चमी इत्युक्ते तस्मात् धीरतापुरस्कारान् प्राप्तवान् तत्र तस्यापि तत्र प्रधानमन्त्रिणः धीरतापुरस्कारान् प्रेसिडेण्ट्स् प्रैस् इति तादृश अर्थे अपि प्रैम् मिनिस्टर्स् प्रैस् तदपि भवितुम् अर्हति एतदपि फ्रम् द प्रैम् मिनिस्टर् इति प्रधानमन्त्रिणः धीरतापुरस्कारान् मुख्यमन्त्रिणः धीरतापुरस्कारान् प्राप्तवान् अस्ति अतः पञ्चमी इति समीचीनमेव षष्टि अपि चिन्तयितुं शक्नुमः अस्तु समीचीनव्यवस्था अतः अयं धीरः बालकः प्राप्तवान् अस्ति किं प्राप्तवान् अस्ति प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरतापुरस्कारान् प्राप्तवान् अस्ति इति अस्तु अग्रे अग्रे लक्ष्मी भगिनी
महोदय अत्र इति वाक्ये तु पुरस्कारान् इत्युक्ते बहुवचने इत्युक्ते बहु बहवः पुरस्कारान्
सत् सत्यं भगिनि केवलम् एकं न हा एकं न सत् समीचीनं भगिनि अतः तत्र प्रायशः तत्र किं पञ्चमी एव प्रायशः उचितम् इति
चिन्तितम्
इति भवति खलु नो चेत् तत्र वचनद्वयमेव भवति खलु न प्रधानमन्त्रिणः इति षष्ठी चिन्तयामश्चेत् प्रधानमन्त्रिणः तस्य एकं
वचने अस्ति तत्तु धीरता पुरस्कारौ
प्राप्तवान् इति भवति इति भवति किन्तु पञ्चमी एव समीचीनं भगिनि अस्तु धन्यवादः अतः इदानीं क्लेशः नास्ति धन्यवादः भगिनि अतः पञ्चमी एव समीचीनम् अस्ति उचितम् अस्ति अत्र समीचीनं अस्तु अस्तु लक्ष्मी भगिनी अग्रे
अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति
एतद् इत्युक्ते किम् एतत् सः प्राप्तवान् इति विषयः एषः विषयः अस्माकं अभिमानास्पदम् इत्युक्ते अभिमानं जनकम् अथवा अभिमान इति तादृश अर्थे तत्र वयं सर्वे गर्वं तत्र अस्माकं गौरवं तत्र भवति तत्र वर्धितं भवति इति चिन्तयितुं शक्नुमः अभिमानं वर्धितम् इति चिन्तयितुं शक्नुमः वयं सर्वे अतः अस्माकं सर्वेषाम् अभिमान आस्पदम् अस्ति एतत् एतं विषयम् इति अस्तु अग्रे आस्पदम् अभिमानयोगः आस्पदम् इत्युक्ते तत्र ग्रस्तम् इति वक्तुं शक्नुमः इत्युक्ते तत्र हास्यास्पदं नाटकम् अस्ति नाटकं सर्वे जनाः पश्यन्ति बहु जनाः हसन्ति सर्व तत्र नाटक यदा पश्यन् सन्ति ते सर्वे बहु किमपि हसन्ति अतः नाटकः नाटकं हास्यास्पदम् अस्ति इति वदामः जनयति अथवा तत्र अस्ति इति तत्र अस्ति हास्यं तस्मिन् नाटके अस्ति इति अत्र अस्माकम् अभिमानम् अस्ति अस्मिन् विषये अस्माकम् अभिमानम् अस्ति
एक गुण अस्ति
हा तादृश हा तत्र हास्यगुण अथवा अत्र अभिमानम् इति अस्ति इति
प्रश्न अस्ति
अरुणा भगिनी वदतु भगिनि
अस्ति अकर्मकधातु अस्ति न महोदय
हा सत्यं
किमत् अभिमानास्पदम् इति पदं कर्मपदं भवति
वा
अभिमानास्पदं तत् सर्वदा नपुंसकलिङ्गे अस्ति भगिनि आस्पदम् इति नपुंसकलिङ्गपदम् अस्ति तत्र यदि भवत्याः क्लेशः तत्र भवति चेत् एतत् चिन्तयितुं शक्नुमः तत्र अस्ति इति क्रियापदं खलु अस्मिन् वाक्ये खलु अस्तु कर्तृपदं किम् अस्ति अस्मिन् वाक्ये
एतत् विषयं प्राप्तवान्
एतत् हा एतत् एतद् विषयः तत्पदम् अहं प्रयोगं कृतवान् किन्तु वाक्ये केवलम् एतत् एव अस्ति अतः लघुवाक्यं किम् अस्ति एतत् अस्ति एतत् किम् अस्ति एतत् अभिमानास्पदम् अस्ति कस्य अभिमानास्पदम् अस्ति अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति
एतत् विशेषणम् अभिमानास्पदमस्य विशेषणं
हा सत्यं भगिनि हा सत्यम् एतत् अभिमानास्पदम् अस्ति कस्य अभिमानास्पदम् अस्माकं सर्वेषाम् अभिमानास्पदं तत्र अभिमानास्पदं हास्यास्पदं सर्वदा नपुंसकलिङ्गे अतः तत्र अस्ति इति अकर्मकधातुः यथा भवती उक्तवती अतः तत्र कर्मपदं नास्ति किन्तु नपुंसकलिङ्गे अस्ति इति कृत्वा तत्र क्लेशः भवति द्वितीयविभक्ति वा प्रथमविभक्ति वा किन्तु अस्ति इति अकर्मकः इति कृत्वा कर्तृपदमेव अभिमानास्पदं समीचीनं वा भगिनि
धन्यवादः
हा अस्तु हा अस्तु अग्रे लक्ष्मी भगिनी अग्रे
एतादृशानां विवेकिनां धीमतां दैव्यवतां बालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति
हा अस्तु इदानीं तस्मिन् वाक्ये क्रियापदं किम् क्रियापदं किं
भविष्यति
अस्तु कर्तृपदं किम्
बालानां
न कर्तृपदं किम् अस्ति केवलं कर्तृपदं कर्तृपदं किम् अस्ति भविष्यति इति क्रियापदं यशः भविष्यति समीचीनम् अस्तु यशः भविष्यति तदनन्तरम् अन्यत् तत्र किमपि अस्ति वा प्रथमविभक्तिरूपम् अस्मिन् वाक्ये भविष्यति इति क्रियापदम् अस्ति तस्य कर्तृपदम् अन्यत् किमपि भवति वा यशः भविष्यति यशः भविष्यति जगति इति तु तत्र विभक्तिका जगति इति पदस्य विभक्तिका जगति इति द्वितीयविभक्ति न जगति जगति सप्तमी हा जगत् जगति हा इति सप्तमी अतः यशः भविष्यति तत्र जगति कुत्र भविष्यति इत्युक्ते जगति भविष्यति हा किन्तु यशः भविष्यति तत्र अन्यत् किमपि कर्तृपदम् अस्ति वा प्रथमविभक्ति प्रसृतम् इति अस्ति समीचीनं कर्मपदं वा अथवा कर्तृपदं वा भवि प्रसृतम् सूर्यकुमारी भगिनी विशेषणं वा प्रसृतम् इति विशेषणम् इति चिन्तयति वा भगिनी सूर्यकुमारी भगिनी अस्तु प्रसृतम् इति विशेषणम् अस्ति कस्य पदस्य विशेषणं प्रसृतम् यशः इति पदस्य विशेषणं समीचीनं किन्तु यशः कीदृशपदम् अस्ति यशः
प्रथमविभक्ति
एकवचनं हा तत्र लिङ्गं किं हा यशस् इति सकारान्तपदं लिङ्गं किं नपुंसकलिङ्गपदं हा समीचीनं भगिनि प्रसृतं नपुंसकलिङ्गपदम् अस्ति प्रथमविभक्तिरूपम् अस्ति तत् तदेव रूपम् अस्ति यशः अपि तस्य यशस् इति मनस् इति पदम् इव मनः मनसि मनांसि यशः यशसि यशांसि इति रूपं भवति यशः प्रसृतं भविष्यति इति कर्तृपदमपि क्रियापदं संयोजितं वाक्यं भवति यशः प्रसृतं भविष्यति कुत्र प्रसृतं भविष्यति यशः
जगति
जगति प्रसृतं भविष्यति यशः यशः जगति प्रसृतं भविष्यति कस्य यशः
देशस्य
यशः अस्तु इदानीं लक्ष्मी भगिनी तत्र देशस्य यशः जगति प्रसृतं भविष्यति केन हा बालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति कीदृशानां बालानां
एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां
हा इति समीचीनं भगिनि अस्तु इदानीं ललिता भगिनि हा तत्र विवेकिनाम् इति पदमस्ति विभक्ति का विवेकिनां
षष्टिविभक्ति बहुवचनं
हा समीचीनं भगिनि तत्र प्रथमविभक्तिरूपं किम् अस्ति एकवचने
विवेकिनः
प्रथमविभक्ति एकवचनरूपम्
विवेकिनः
विवेकिनः अस्तु हा अस्तु
विवेकिनः
अस्तु नरेश् महोदय प्रथमविभक्ति एकवचनरूपं विवेकिनाम् इति पदस्य
प्रथमविभक्ति
विवेकिनाम् अस्तु तत्र योगी इति अस्ति योगी इति पदस्य
योगिन् योगिनौ योगिनः सो विवेकिन् विवेकिनौ विवेकिनः
नरेश्
महोदय नरेश् महोदय तत्र कीदृशपदं भवति तत्र विवेकिनाम् इति अस्ति चेत्
विवेकिन्
प्रातिपदिकं प्रातिपदिकं विवेकिन् आत्मन् शब्दवत् अथवा योगीन् योगी शब्दवत् अतः योगिन् किं भवति योगी इति प्रथमविभक्तिरूपं भवति विवेकिन् इति पदस्य प्रथमविभक्तिरूपं किं भवति
विवेकी
दीर्घ इकारः यस्य विवेकः अस्ति सः विवेकी यस्य विवेकः अस्ति सः विवेकी विवेकिनां विवेकिनः इति एकवचनषष्टि विवेकिनां बहुवचनषष्टि विवेकिनाम् इदानीं तत्र धीमताम् इति अस्ति तत्र प्रथमविभक्तिरूपं किम् अस्ति
धीमत्
हा अथवा धीमान् इति
धीमान्
धीमत् प्रातिपदिकं धीमान् इति प्रथमविभक्तिरूपं हा षष्टिविभक्ति एकवचनरूपं किम् अस्ति धीमतः समीचीनं तादृशधैर्यवताम् इति अस्ति प्रातिपदिकं
धैर्यवान्
प्रथमविभक्तिरूपं प्रातिपदिकं
धैर्यवत्
धैर्यवत् इति हा धैर्यवत् इति प्रातिपदिकं धैर्यवान् इति भगवत् भगवान् धैर्यवत् धैर्यवान् भवत् भवान् धीमत् धीमान् इति रूपं समीचीनम् अस्तु अग्रे हा नरेश् महोदय तत्र हा तादृशबालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति इदानीं तत्र देशस्य यशः इति आरभ्य तत्र वाक्यं वदतु महोदय देशस्य यशः जगति प्रसृतं भविष्यति केन मार्गेण इति मध्ये स्थापयति इदानीं देशस्य यशः केन 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 जगति प्रसृतं भविष्यति
देशस्य यशः एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां द्वारा एव
जगति
जगति
प्रसृतं भविष्यति समीचीनं महोदय समीचीनं अतः देशस्य यशः जगति प्रसृतं भविष्यति केन मार्गेण एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां द्वारा इदानीं तत्र बालानां द्वारा इति तादृशं न अस्वीकृत्य यदि तृतीया विभक्ति बहुवचनम् इच्छामः तत्र किं भवति बालैः इति भवति बालैः इति भवति अस्तु समीचीनं तदनन्तरं तत्र शुभदा भगिनी तत्र विवेकिनाम् इति पदस्य तृतीयविभक्ति बहुवचनरूपं किं भवति
विवेकिनाम् एकनिमिषं विवेकिभ्यां विवेकिभिः
विवेकिभिः हा तदनन्तरं धीमताम् इति अस्ति तत्र
धीमता धीमद्भ्यां धीमद्भिः
हा धीमद्भिः हा धैर्यवद्भिः
धैर्यवता धैर्यवतां धैर्यवद्भिः
हा एतादृशैः एतादृशेभ्यः प्रायशः क्षम्यताम् एतादृशेभ्यः
एतादृशेभ्यः विवेकि
भिः क्षम्यतां मम दोषः एतादृशिभिः प्रायशः भवति इति मन्ये क्षम्यतां भगिनी हा एतादृशिभिः विवेकिनाम् इति स्थाने किम् आसीत् विवेकिभिः इति खलु
विवेकिभिः धीमद्भिः धैर्यवद्भिः बालैः
बालैः देशस्य एव देशस्य यशः प्रसृतं भविष्यति जगति प्रसृतं भविष्यति अस्तु
एकः प्रश्नः प्रसृतं भविष्यति इति प्रसृतम् इति क्रियाविशेषणं वा विशेषणं वा
प्रसृतं प्रसारणं प्रसारणम् इत्युक्ते तत्र स्प्रेड् इति अर्थः
सो भविष्यति इट् इस् टेलिङ्ग् मोर् अबौट् भविष्यति सो
प्रसृतं हा तत् हा प्रसृतम् इति तत्र किं तत्र विभक्ति तत्र किमर्थं तत् अड्वर्ब् इति यद् वदामः तदस्ति तत्र अतः तत्र द्वितीयविभक्तिरूपं
महोदय प्रायः
क्षम्यतां द्वितीयविभक्तिरूपं नास्ति क्षम्यतां मम दोषः तत्र भविष्यति इति क्रियापदं यशः प्रसृतम् इति अतः प्रसृतम् इति विशेषणमस्ति यशः इति पदस्य नरेश् महोदय एतदेव भवान् वक्तुम् इच्छति वा
न अहं तु पृच्छामि द्वारा प्रायः संस्कृतभाषायां न श्रुतवान् द्वारा हिन्दीभाषायाम् अस्ति परन्तु अत्र बालानां द्वारा
नूतनमस्ति, नूतनम् एतावत् न दृष्टवन्तः खलु. समीचीनं महोदय, अतः एव अहं तत्र तृतीयविभक्तिरूपं स्थापितुम् इष्टवान्.
स्पोकन् संस्कृत मध्ये तु अव्ययपदं दत्तं द्वारा, बै मीन्स्
द्वारा इति. अस्तु, द्वारा इत्युक्ते बै मीन्स् आफ् इति. अस्तु, समीचीनम्. अस्तु, धन्यवादः भगिनी. अस्तु, अतः तत्र द्वारा तु अस्ति, किन्तु यत् नरेश महोदय वदति तत्तु सत्यम्. एतावत् वयम् एतत् पदं न दृष्टवन्तः
हिन्दीभाषा
इति कुत्रापि. हा, किन्तु कुत्रापि तृतीयविभक्तिरूपं तत्र सः इति रूपं दृष्टवन्तः, किन्तु द्वारा इति न दृष्टवन्तः. तस्य द्वारा एतद् अभवत् इति तादृशरूपम् एतावत् न दृष्टवन्तः. समीचीनम्. हा, धन्यवादः महोदय, धन्यवादः भगिनी. अपि शुभदा भगिनी, इदानीं समीचीनं वा? तत्र यशः प्रसृतम् इति भवति. यशः प्रसृतं भविष्यति. प्रसृतम् इति विशेषणम् अस्ति यशः पदस्य, अतः रूपं तत्र प्रथमविभक्ति एकवचनरूपमेव. अस्तु, तत्र इदानीं समयः अपि जातः, अतः तत्र स्थगयामः. अग्रिमवर्गे प्रभृतां घटनामिति आरभ्य अग्रे गच्छामः. किन्तु तत्र दीर्घवाक्यं यदस्ति तत्र तादृशवाक्यस्य अवगमनं समीचीनं भवेत् इति वयं बहु अभ्यासं कृतवन्तः अद्य. अस्तु अस्तु, तर्हि अन्यः प्रश्नः अस्ति वा? अस्तु अस्तु, तर्हि विरमाम, अग्रिमे वर्गे मिलामः. तत्र
महोदय एकः प्रश्नः, प्रस्फुटं कथम् आगच्छति? प्रापूर्वक धातुः
किं भगिनि? कुत्र
प्रस्फुटं?
तत्र कृदन्तरूपमिति, तत्र पठितम् इति, तत्र प्रसारणं भवति इति, तादृश प्रसृतम् इति. तत्र प्रसारयति इति प्रायशः क्रियापदम् अस्ति इति मन्ये भगिनि.
धन्यवादः महोदय.
हा, अस्तु, तत्र अन्ते शान्तिमन्त्रम् इति तत्र गीताञ्जलि भगिनी वदति वा?
आम् महोदय.
अस्तु,
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्ति. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ.
धन्यवादः भगिनी.
धन्यवादः.